एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। नागढुङ्गा सिस्नेखोला गुहा मार्गस्य ह्य औपचारिक रूपेण उद्घाटनम् विहितमस्ति। पूर्वाधार विकास मन्त्रिणा सुनिल लम्चालेन उद्घाटनम् विहितम्। तदवसरे पूर्वाधार विकास मन्त्रिणा खनालेन जापान अन्तर्राष्ट्रिय सहयोग नियोगस्य अध्यक्षेण तानाका अकिहिको इत्यनेन, नेपालस्य कृते जापान देशस्य राजदूतेन मायदा तोरु इत्यनेन च गुहा मार्गे संयुक्त रूपेण यातायात साधनानां गमनागमनस्य च उद्घाटनं विहितम्। तदवसरे जापान अन्तर्राष्ट्रिय सहयोग नियोगस्य अध्यक्ष तानाका नागढुङ्गा सिस्नेखोला गुहा मार्ग नेपालस्य यातायात विकास यात्राया ऐतिहासिकी रूपान्तरण कारिणी च उपलब्धिरस्तीति अगदत्। नेपालस्य कृते जापान देशस्य राजदूत मायदा तोरु जापान सर्वकारस्य आधिकारिक विकास सहयोगस्य नेपालस्य प्राविधिकानां श्रमिकाणां च परिश्रमेण गुहामार्गोऽयं निर्मितोऽस्तीति प्रावोचत्। असौ अनया परियोजनया नेपाल जापान देशयोः सर्वकारस्य मध्ये विश्वासपूर्ण दीर्घकालिकी च सहयात्रा आधिक्येन सुदृढा सम्भूता अस्तीति अगदत्। तदवसरे पूर्वाधार विकास मन्त्रालयस्य सचिव गोपाल प्रसाद सिग्देल नागढुङ्गा प्रवेश मार्ग बहुकालात् काष्ठ मण्डप उपत्यकाया पश्चिम दिश प्रवेशद्वारत्वेन विद्यमानेऽपि अत्यधिकानां यानानां सम्मर्दस्य संकटपूर्णस्य मार्गस्य च रूपेण परिचितोऽस्तीति अगदत्। अत्रान्तरे नागढुङ्गा गुहा मार्ग निर्माणायोजनया प्रभावितस्य क्षेत्रस्य पेयजलायोजनाया दीर्घकालिक सञ्चालनस्य सम्भारस्य स्थानीय सम्बद्धताया विषयेष् च पूर्वाधार विकास मन्त्रिण सुनील लम्चालस्य प्रभावित क्षेत्रस्य प्रतिनिधिनांश मध्ये विमर्शनम् सम्भूतमस्ति। ह्य पूर्वाधार विकास मन्त्रालये सम्भूते विमर्शने पेयजलायोजनाया सञ्चालनम् सुनिश्चेतुम् एकादश सूत्रात्मिका निर्णया विहिता सन्ति इति मन्त्रालयेन ज्ञापितम् वर्तते। गृहमन्त्रालयेन सुनसरी जनपदस्य कप्तानगंज स्थाने सम्भूताया घटनाया सत्यं तथ्यं च अन्वेष्टुं पञ्चसदस्यात्मिका समितिः संघटिता अस्ति। समित्या घटनाया कारणस्य सुरक्षा व्यवस्थापनस्य गुलिका प्रहारस्य च कारणसहिताया घटनाया अध्ययनं विधाय प्रतिवेदनं प्रस्तोष्यते। देवानगंज ग्रामपालिकाया तृतीयोडा क्षेत्रस्य कप्तानगंज स्थाने सम्भूताया घटनाया अनन्तरं उत्पन्नाया परिस्थितेः नियन्त्रणाय सुरक्षा व्यवस्था सुदृढा विहिता अस्ति। गृहमन्त्रालयेन सुनसरी जनपदे सम्भूताया घटनाया अनन्तरं जनपदस्य प्रमुख जनपदाधिकारी वासुदेव अधिकारी सहिता सुरक्षा निकायानां प्रमुखा प्रत्यावर्तिता वर्तन्ते। घिमिरे गृहमन्त्रालये प्रत्यावर्तितोऽस्ति। सुनसरी जनपदस्य प्रमुख जनपदाधिकारित्वेन ईश्वरी प्रसाद अर्याल प्रेषितोऽस्ति। एवमेव कोशी प्रदेश प्रहरी कार्यालयस्य प्रमुखत्वेन प्रहरी नायब महानिरीक्षक शेख रखनाल प्रेषितोऽस्ति। एवमेव जनपद प्रहरी कार्यालयस्य प्रमुखत्वेन प्रहरी उपरीक्षक केशव थेवे निर्धारितोऽस्ति। सुनसरी जनपदस्य देवानगंज ग्रामपालिकाया तृतीय ओडा क्षेत्रस्य कप्तानगंज स्थाने रविवासरस्य रात्रौ द्वयोः समूहयोः मध्ये द्वन्द्वे सम्भूते एकः जनः मृतोऽस्ति। घटनायां साधारण जनः नव जनः दश प्रहरिणः पञ्च सशस्त्र प्रहरिणश्च समहत्य चतुर्विंशति जनः आहताः वर्तन्ते। सुनसरी जनपद प्रशासन कार्यालयेन ह्य रात्रौ नववादनात् पुनः अपराम सूचनां यावत् निषेधाज्ञा क्रियान्विता अस्ति। सुनसरी जनपदस्य पूर्वस्यां दिशि नरुवा नगरपालिकायाः तृतीय षष्ठयोः ओडा क्षेत्रयोः सिम्नी महेन्द्र राजमार्गस्य घोपाली टोल स्थानात् पश्चिमायां दिशि कोशी नद्याः सेतोः पर्यन्तम्, उत्तरस्यां दक्षिणस्यां च दिशि महेन्द्र राजमार्गस्य उभयोः पार्श्वयोः शतद्वय मीटर मितं यावत् निषेधाज्ञा क्रियान्विता अस्ति इति ज्ञापितम् वर्तते। वीरगंज वर्तिनी नारायणी चिकित्सालये गत शनिवासरे सम्भूतस्य त्रोटनस्य भञ्जनस्य चिकित्सकेभ्य विहितस्य दुर्व्यवहारस्य च विरोधे चिकित्सकानां स्वास्थ्यकर्मिणाम् आन्दोलनं सञ्चलदस्ति। स्वास्थ्यकर्मिभिः वीरगंज नगरस्य घण्टाघर चौक स्थाने प्रदर्शनं कुर्वद्भिः दोषिणां दण्डाय शान्ति सुरक्षायाः व्यवस्थापनाय च याचना विहिता। रविवासरात् नारायणी चिकित्सालयस्य आकस्मिक सहिताः सर्वा सेवा अवरूद्धा सन्ति। नेपाल चिकित्सक संघस्य आह्वाने वीरगंज नगरस्य नैज चिकित्सालयानां चिकित्सकानां ऐक्यबद्धतायां वीरगंजस्य प्रायः सर्वेषां चिकित्सालयानां सेवा प्रभाविता अस्ति। सेवायां प्रभावितायां सत्यां रोगिणः संकटे पतितः सन्ति। अत्रान्तरे स्वास्थ्य खाद्य स्वच्छता मन्त्रालयेन संयमितरूपेण नारायणी चिकित्सालयस्य सेवां संचालयितुं सर्वे पक्षाः अनुरुद्धा वर्तन्ते। मन्त्रालयस्य सहप्रवक्त्रा समीर कुमार अधिकारिणा विज्ञप्तिं प्रकाश्य नारायणी चिकित्सालये उपचारस्य क्रमे एकस्य रोगिणः मृत्योर्घटनां प्रति दुःखम् अभिव्यज्य घटनायाः अनन्तरं चिकित्सालये सम्भूतयोः त्रोटनभञ्जनयोः घटनां प्रति उपचारे संलग्नेषु चिकित्सकेषु स्वास्थ्यकर्मिषु च सम्भूतम् आक्रमणं प्रति गभीरतया ध्यानाकर्षणं सम्भूतम् अस्तीति ज्ञापितं वर्तते। शिक्षा खेलकूद मन्त्रिणा सस्मित पोखरेलेन शिक्षा क्षेत्रे संरचनागतस्य सुधारस्य गुणस्तरीयस्य शिक्षणस्य च आवश्यकता अस्तीति उक्तं वर्तते। जनकपुरवर्तिनः रामस्वरूप राम सागर महाविद्यालयस्य निरीक्षणस्य क्रमे मन्त्री पोखरेलः समयानुसारेण शिक्षा क्षेत्रस्य संरचनागतेन सुधारेण सहैव गुणस्तरीय शिक्षणे बलं प्रादात्। सार्वजनिक नीति प्रत्यायोजित विधायन समितेः उपवेशे सांसदैः राष्ट्रस्य अस्तित्वं परिचयं च सुदृढं विधातुं तथ्येषु आधृतम् इतिहासं प्रति यूनां संचेतनाम् अभिवर्धयितुम् आवश्यकमस्तीति उक्तं वर्तते। समितेः ह्य उपविष्टे उपवेशे सांसदः आधुनिकीकरणस्य नाम्नि ऐतिहासिकरूपेण महत्वपूर्णानां सम्पत्सूच्यां सूचीकृतानां स्थलानां मौलिक स्वरूप परिवर्तन कार्यं तत्कालं परिहरणीयम् इत्युक्तवन्तः। उपवेशे इतिहासविद्भिः त्रिभुवन विश्वविद्यालयस्य केन्द्रीय ऐतिहासिक विभागस्य पदाधिकारिभिश्च राजनीतिक प्रचारस्य व्यावसायिक स्वार्थस्य च आधारे इतिहासस्य लेखनं निषेद्धुं बलं प्रदाय राजनैतिकार्थिक सामाजिक भूगोल सम्बद्धस्य इतिहासस्य एकीकृताध्ययनस्य अभिलेखीकरणस्य संरक्षणस्य च कृते आधुनिक प्रविधेः प्रयोगाय प्राथमिकता प्रदेया इत्यत्र बलं दत्तम्। राष्ट्रिय विपद न्यूनीकरण व्यवस्थापन प्राधिकरणस्य तथ्यांकस्य अनुसारेण अस्य वर्षस्य श्रावण मासस्य सप्तमं दिवसं यावत् चतुर्नवत्युत्तरैकादशशतं विपज्जन्याः घटनाः सम्भूताः सन्ति। घटनायां पञ्चपञ्चाशत् जनाः मृताः, त्रयो जनाः विलुप्ताः, त्रिषष्ट्युत्तरैकशत जनाः आहताः, त्रिपञ्चाशदुत्तरशतत्रयाधिकैकसहस्र संख्याताः परिवाराः प्रभाविताश्च वर्तन्ते इति ज्ञापितमस्ति। विभिन्नासु घटनासु त्रयोदश कोटिभ्यः पञ्चत्रिंशल्लक्षेभ्यश्चाधिकस्य धनस्य क्षतिः सम्भूता अस्ति। नेपाले विपज्जन्यासु घटनासु निपत्य प्रतिवर्षं शताधिकाः जनाः म्रियन्ते। महान्यायाधिवक्त्री कार्यालयेन चतस्रः पञ्चवर्षीया रणनीतिकी योजना सार्वजनिकीकृता अस्ति। महान्यायाधिवक्त्री कार्यालयेन ह्य आयोजिते पत्रकार सम्मेलने महान्यायाधिवक्ता डाक्टर नारायण दत्त कडेलः योजनेयं सार्वजनिकृतवान्। अछाम जनपदस्य कमल बजार स्थानस्य मानसयन मार्गखण्डे ह्य अटोरिक्षायानस्य दुर्घटनायां एको जनः मृतोऽस्ति। दुर्घटनायां त्रयो जनाः आहताः वर्तन्ते। मृतकः कमल बजार नगरपालिकायाः पञ्चमवडा क्षेत्रस्य बेला भण्डारी वर्तते इति प्रहरिणा ज्ञापितमस्ति। एवमेव सल्यान जनपदे अटोयानस्य दुर्घटनायां पञ्च जनाः आहताः वर्तन्ते। इति समाचारः।